अथ नमोऽध्यायः श्रीभगवानुवाच वेदान्तुते गोविजतमम् वक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षसेशुभात् राजवेद्या राजगोह्यं पवित्रमिदमोत्तमम् प्रत्यक्षावगमं धैर्यम् सुखं कर्तुमव्ययम् अश्रद्धधानः पुरुषा धर्मस्यास्य परन्तप अप्राप्यमाने वर्तन्ते मृत्यु संसारवर्त्मनि मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मस्तानि सर्वभूतानि न चाहं ते स्ववस्थित न च मस्तानि भूतानि पश्य मे योगमैश्वरम् भूतभ्रन्न च भूतस्थो ममात्मा भूतभावना यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमः तथा सर्वाणि भूतानि मत्सानीत्युपधारय सर्वभूतानि कान्तेय प्रकृते यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिं स्वामवस्तभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृष्णमवशं प्रकृतेर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमसक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृति श्रूयते सचराचरम् हेतुनानेन कौन्तेय जगद्य परिवर्तते अवजानन्ति मां मूढा मानुषेन्तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् मोघाशामोघकर्माणो मोघज्ञानाविचेतस राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता भजन्त्यनन्यमनसो ज्ञात्वाभूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तस्तदृढव्रता नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्तेन बहुधा विश्वतो मुखम् अहं क्रतुरहं यज्ञस्पृधाहमहमौषधम् मन्त्रोऽहमहमेवाज्यमहमग्निरहमुतम् कृताहमस्य जगतो माता पितामह वेद्यं पवित्रमङ्करोक्षाम यजुरेव च गतिर्भर्ता प्रभु साक्षी निवास शरणं सुरे प्रभव प्रलयस्थानम् निधानं बीजमव्ययम् तपाम्यहमहं वसुं निघ्नाम्युत्सृजामि च अमृतं चैव मृत्योश्च सर्वसच्चाहमर्जुन चैविद्या मां सोमपापूथ पाप यजीरिष्ट्वा स्वर्गतिं प्रार्थयन्ते पुण्यमासाद्य सुरेन्द्रलोक मस्तन्ति दिव्यान्दिदेव एतं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामलभन्ते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् येऽप्यन्यदेवता भक्त्वा यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्कृनातश्च वन्ति ते यान्ति देवव्रता देवान् कृतेन्यान्ति विदिग्धता भूतानि यान्ति भूतेज्या यान्ति मध्यादिनोऽपिमान् पत्रं पुष्पं फलं तोयम् यो मे भक्त्या प्रयच्छति तदहं भक्त्युपनीतमस्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि तदासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्वदर्पणम् शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि समूहं सर्वभूतेषु मे द्वेष्योऽस्ति न प्रिय ये भजन्ति तु मां भक्त्या मयि तेषु चाप्यहम् अपि तेषु दुराचरो भजते मामनन्य साधुरेव समन्तव्य सम्यग्वसितो हि स क्षेत्रं भवति धर्मात्मा शाश्वत शान्तिं गच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति, मां विपार्थव्यपाश्रेष्य येभिः पापयोनयः। श्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गते। किं पुनर्ब्राह्मणा पुण्या भक्तरजर्षदस्तथा अनेत्यमसुखं लोक इमं प्राप्य भजस्व माम्। मन्मना भव मद्भक्तो मज्जादिमां नमस्कुरु, मामैवैष्यसि योक्तैव मात्मानं मत्परायण, मात्मानं मत्परायण। ॐ सत्सत् श्रीमद्भगवद्गीता।